इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। झारखण्ड राज्यस्य पूर्ववर्तिषु क्षेत्रेषु नैर्वाचनिक प्रचाराभियानं सजवं सशक्त्या च प्रवर्तते। क्षेत्रेस्मिन् प्रथमचरणीय मतदानम् अस्य मासस्य त्रयोदशदिनांके भविता। प्रचाराभियाने उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन प्रदेशस्य मुख्यमन्त्री हेमन्त सोरेनः आरोपितः यत् तेन प्रदेशोऽयं नष्टीकृतः इति। श्री आदित्यनाथः कोडर्मायाः दोमचाचीति क्षेत्रे सभामेकां सम्बोधयन् आसीत्। अपरत्र प्रदेशस्य मुख्यमन्त्रिणा वरिष्ठ झामुमो नेत्रा हेमन्तसोरेणेन च भाजपेति दलस्योपरि धर्माधारितविभाजनस्य आरोपः आरोपितः। तत्रैव रक्षामन्त्रिणा राजनाथसिंहेन राची लोहारडागा इत्येतयोः क्षेत्रयोः नैर्वाचनिकसभेऽपि सम्बोधिता। एतन्मध्ये कांग्रेसदलाध्यक्षेण मल्लिकार्जुन खड्गे इत्यनेनापि INDIA इति संघस्य प्रत्याशिनां पक्षे मतदानाय मांडुकार्के इत्येतयोः क्षेत्रयोः मतदातृसमं अभ्यर्थना कृता। पश्चिममहाराष्ट्रस्य प्रायः सर्वेषु क्षेत्रेषु नैर्वाचनिकप्रचाराभियानं द्रुततरां भजते। इतः आहत्य 44,100+ जनाः प्रत्याशित्वेन स्वकीयं भाग्यं परीक्षन्तः सन्ति, येषु नैके वरिष्ठाः दलनेतारः अपि सन्ति। चतुर्दिवसीयः छठ्पूजोत्सवः ह्यः आरभ्य नहायखाय इत्यनेन अनुष्ठानेन साकं समारब्धम्। बिहारराज्ये बृहत्सङ्ख्यायां श्रद्धालवः गंगा, कोसी, गण्डक, बागमती नदीनां तटेषु सूर्योपासनायै एकत्रिताः जाताः। तत्रैव नेपालदेशस्य निम्नवर्तिक्षेत्रेषु काठमाण्डु महानगरे च ये केऽपि सरित्सरोवराः सन्ति, छठोत्सवम् उपलक्ष्य समेषां स्वच्छीकरणोपक्रमः सौन्दर्यीकरणं च प्रचाल्यते। भारत नाइजीरिया देशयोः मध्ये द्वितीयः सामरिकः आतंकवादविरोधी च संवादः ह्यः नवदिल्ल्यां सम्पन्नम्। द्विदिवसीयसंवादस्य कालखण्डे राष्ट्रीय सुरक्षा परामर्शदः अजीत डोभालः तस्य नाइजीरिया देशस्य समकक्षः नुहु रिबाडु च आतंकवादम्, अतिवादम्, कट्टरतावादम् च समेत्य अन्ताराष्ट्रिय अपराध शस्त्र मादक द्रव्यादीनाम् अवैध व्यापार प्रकरणे चर्चितवन्तौ। उभौ पक्षौ आतंकवादस्य सर्वेषां प्रकरणानां विरुद्धं युद्धं वर्धयितुं सहकार्यस्य विशिष्ट क्षेत्राणि चिह्नितवन्तौ। सहैव उक्तवन्तौ यत् आतंकवादस्य केनापि रूपेण प्रकटीकरणम् औचित्यं न भवितुमर्हतीति। संसदः शीतसत्रम् अस्य मासस्य 25 दिनांकादारभ्य दिसम्बर मासस्य 20 दिनांकपर्यन्तं भविष्यति। संसदीय कार्याणां मन्त्री किरेन रिजिजुः एकस्मिन् सामाजिक अन्तर्जालीय सन्देशे अवदत् यत् नवम्बर 26 दिनांके संविधानस्वीकरणस्य 75वर्षं संविधानसदनस्य केन्द्रीयभवने आयोज्यते। आईओए इति भारतीय ओलम्पिक संघः 37,2000तमवर्षस्य ओलम्पिक पैरालिम्पिक क्रीडयोः आतिथ्यं कर्तुं भारतस्य इच्छां प्रकटयन् आईओसी इति अन्ताराष्ट्रिय ओलम्पिक समित्याः भविष्य आयोजक आयोगाय आशयपत्रं प्रदत्तवान्। सूचनानुसारं पत्रं गतमासे प्रदत्तमासीत्। प्रधानमन्त्री नरेन्द्रमोदी 37,2000तमवर्षस्य ओलम्पिक क्रीडायाः आतिथ्यं कर्तुं स्वसर्वकारस्य आकांक्षायाः विषये उक्तवान् आसीत्। 37,2000तमवर्षस्य क्रीडायाः आतिथ्यं कर्तुं भारतस्य प्रतिबद्धतायाः विषये गतवर्षे मुम्बईनगरे आईओसी इत्यस्य 141,100तमे सत्रे प्रतिबद्धतायाः विषये बलं दत्तमासीत् इति वार्ताः।